इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको निक्षितः शास्त्री आदौ मुख्यवार्ताः प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य चण्डीगढ़ नगरे नूतन आपराधिक विधीन् सफलतया राष्ट्राय समर्पितवान् राष्ट्रपति द्रौपदी मुर्मू इत्यनया अद्य नवदिल्ली नगरे ऐषमः अन्ताराष्ट्रिय दिव्यांग दिवसस्य उपलक्ष्ये राष्ट्रिय पुरस्काराः प्रदत्ताः विदेशमन्त्रिणा डॉ एस जयशंकरेण बोधितं यत् सीमा क्षेत्रेषु शान्तिः भारत चीनयोः उभयोः देशयोः प्राथमिकता अस्ति अपि च भारतस्य पवन कम्पेली बैंकॉक नगरे अस्य वर्षस्य एशियन ई स्पोर्ट्स गेम्स इत्येतस्यां प्रतियोगितायां ई फुटबॉल स्पर्धायां कांस्य पदकं प्राप्तवान् अथ वार्ताः विस्तरेण प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन अद्य चण्डीगढ़ नगरे नूतन आपराधिक विधीनां सफल कार्यान्वयनं राष्ट्राय समर्पितम् अस्मिन्नवसरे केन्द्रीयो गृहमन्त्री सहकारिता मन्त्री च श्री अमितशाहः अपि उपस्थितः आसीत् आयोजनं सम्बोधयन् प्रधानमन्त्री उक्तवान् यत् नूतनानाम् आपराधिक विधीनां कार्यान्वयनम् अस्माकं संविधानेन अस्माकं देशस्य नागरिकानां कृते ये आदर्शाः परिकल्पिताः तेषां पूर्तये दृढास्पदं वर्तते प्रधानमन्त्रिणा उक्तं यत् एते नूतनाः विधयः भारतम् औपनिवेशिक विधिविचारेभ्यः मुक्तं करिष्यन्ति चण्डीगढ़े नूतनानाम् आपराधिक विधीनां सफल कार्यान्वयनार्थं पंजाब हरियाणा उच्च न्यायालयस्य विधिवेत्रिणां चण्डीगढ़ न्यायालय सदस्यानां च धन्यवादम् अभिनन्दनं च कृतवान् अस्मिन्नवसरे केन्द्रीय मन्त्री श्री अमितशाहः अवदत् यत् त्रयः नूतनाः आपराधिक विधयः सम्पूर्णे देशे वर्षत्रयाभ्यन्तरे कार्यान्विताः भविष्यन्ति श्रीशाहः अवदत् यत् इमे विधयः भारतीयैः निर्मिताः भारतीय संसदि जनेभ्यः न्यायं प्रदातुं च निर्मिताः सन्ति ततः प्राक् श्रीमोदी शाह च चण्डीगढ़ नगरे परिवर्तनकारिणां नवीनानाम् आपराधिक विधीनां त्रयाणां भारतीय न्याय संहिता भारतीय नागरिक सुरक्षा संहिता भारतीय साक्ष्याधिनियमानां च विषये एकां प्रदर्शनीं द्रष्टुम् अपि गतवन्तौ राष्ट्रपति पदासीना श्रीमती द्रौपदी मुर्मू अद्य नवदिल्ली नगरे ऐषमः अन्ताराष्ट्रिय दिव्यांग दिवसस्य उपलक्ष्ये त्रयस्त्रिंशद्भ्यः अनुकरणीय व्यक्तिभ्यः संस्थाभ्यश्च दिव्यांगजनसशक्तिकरणाय राष्ट्रिय पुरस्कारान् प्रदत्तवती आयोजने सभां सम्बोधयन्ती श्रीमती मुर्मू अवदत् यत् अद्यतन पुरस्कार विजेतारः समाजस्य सम्मुखे आदर्शभूताः वर्तन्ते सा अवदत् यत् तेषाम् अनुकरणं कृत्वा अन्ये व्यक्तयः संस्थाश्च दिव्यांगजनानां सशक्तिकरणं प्रति अग्रे आगन्तुं शक्नुवन्ति राष्ट्रपतिः अवदत् यत् दिव्यांगजनानाम् उद्यमशीलतायाः प्रचारः तेषां कौशलस्य विकासः तेभ्यः एव वृत्त्यवसरान् प्रदातुं तेषाम् उत्पादनानां क्रयणे प्राधान्यं प्रदातुं विपणनसुविधाः च प्रदातुं साहाय्यं करिष्यति तेषाम् उदाहरणम् अनुसृत्य अन्येऽपि दिव्यांगानां सशक्तिकरणस्य दिशि अग्रे आगन्तुं शक्नुवन्ति इति सा बोधितवती अद्यतन पुरस्कार विजेतारः प्रेरणायाः स्रोतो भूताः वर्तन्ते इति राष्ट्रपतिना उक्तम् सममेव सा दिव्यांगानां कृते सार्वत्रिक सुलभतां प्रदातुं सुगम्य भारत अभियानस्य भूमिकां प्रकाशितवती दिव्यांगजनानां कृते सर्वथा बाधारहितं वातावरणं प्रदातुं समाजस्य प्राथमिकता भवेत् सा उल्लेखं कृतवती यत् अस्मिन् वर्षे समावेशक स्थायि भविष्यतः कृते दिव्यांगानां नेतृत्वस्य प्रवर्धनम् इति विषयः अन्ताराष्ट्रिय दिव्यांग व्यक्ति दिवसस्य उत्सवस्य कृते चितो वर्तते अस्मिन्नवसरे सामाजिक न्याय सशक्तिकरण मन्त्री डॉ वीरेन्द्र कुमारः दिव्यांगजनानां जीवनं समृद्धं कर्तुं षोडश परिवर्तनकारी उपक्रमाणां अनावरणं कृतवान् विदेशमन्त्रिणा डॉ एस जयशंकरेण बोधितं यत् सीमाक्षेत्रेषु शान्तिः भारत चीनयोः उभयोः देशयोः प्राथमिकता अस्ति सः अवदत् यत् आगामीषु दिनेषु सीमाक्षेत्रेषु सैन्य गतिविधीनां नैयून्यस्य प्रभावी प्रबन्धनस्य च द्वयोः विषये चर्चा भविष्यति। विदेशमन्त्री अद्य लोकसभायां चीनदेशेन सह भारतस्य सम्बन्धानाम् अद्यतन विकास विषये वक्तव्यं प्रददाति स्म। डॉक्टर एस जयशंकरः अवदत् यत् 20-उत्तर-2000 वर्षस्य अप्रैल मे मासयोः पूर्वी लद्दाखे भारतीय चीन सेनयोः मध्ये सम्मुख संघर्ष कारणात् तदारभ्य उभयोः देशयोः सम्बन्धाः असामान्य प्रायाः वर्तन्ते। सः सशस्त्र सेनानां भूमिकायाः प्रशंसाम् अकरोत् यत् तदा तस्मिन् काले कोविड स्थितौ आह्वानेषु सत्स्वपि भारतं द्रुतगत्या प्रभाविरूपेण च प्रतिनियोजनं कर्तुं समर्थम् अभवत्। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः उक्तवान् यत् केन्द्र प्रशासनेन विगतेषु दशवर्षेषु न्यूनतम समर्थन मूल्ये प्रायः त्रिगुणात्मिकी वृद्धि कृतास्ति। अद्य लोकसभायाम् एकस्य प्रश्नस्य प्रत्युत्तरे असौ कथितवान् यत् एनडीए प्रशासनेन व्यये 50% लाभं संयोजयित्वा एमएसपी इति न्यूनतम समर्थन मूल्यं निर्धारितं कृतमस्ति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। मार्ग परिवहन राजमार्ग मंत्री श्री नितिन गडकरी अद्य जीवाश्मेन्धनस्य विकल्पेन एथेनॉल मेथेनॉल इत्येतयोः सदृशयोः जैवेन्धनस्य उपयोगाय महत्वं प्रदत्तवान्। नवदिल्ल्यां ऊर्जा संक्रमण सततं मार्ग परिवहनम् आश्रित्य 18 सम्मेलनं सम्बोधयन् श्री गडकरी प्रधानमन्त्रिणः नरेन्द्र मोदिनः 5 ट्रिलियन डॉलर मितायाः अर्थव्यवस्थायाः स्वप्नं पूरयितुं जीवाश्मेन्धनस्य आयातं न्यूनीकर्तुं बलं प्रदत्तवान्। तेनोक्तं यत् भारतं प्रायः 22 लक्षकोटि जीवाश्मेन्धनस्य आयातं करोति, अथ अस्या मात्रायाः न्यूनीकरणेन अर्थव्यवस्था सुदृढा भविष्यति। संसदः उभयोः सदनयोः अद्य कार्यव्यापारः सामान्यतया समारब्धः। सर्वकार विपक्षयोर्मध्ये प्रचल्यमानः 5-दिवसीयः गतिरोधः समाप्तः। लोकसभायां राज्यसभायां च प्रश्नसमये शून्यकाले च जनमहत्वस्य विषयाः गृहीताः। लोकसभायाम् उत्तरप्रदेशस्य संभले हिंसा प्रकरणे एकं प्रमुखं व्यापारिक समूहं विरध्य कथित उत्कोच आरोप सन्दर्भे सम्पूर्ण विपक्षेण बहिष्कारं कृतम्। सभापति ओम बिरला तान् शून्यकालावधौ स्वविषयान् उत्थापयितुं पृष्टवान्। कांग्रेस समाजवादी पार्टी डीएमके इत्यादीनां सदस्यैः कोलाहलपूर्णस्य वातावरणस्य निर्माणं कृतम्। शून्यकालावधौ समाजवादी पक्षस्य सांसदः अखिलेश यादवः संभलस्य घटना सुनियोजितः षड्यन्त्रः आसीत् इति आरोपं कृतवान्। अस्मिन् विषये सम्बद्धानाम् आरक्षिणां प्रशासनिक अधिकारिणां च विरुद्धं कार्यवाही करणीया इति सः आग्रहं कृतवान्। राज्यसभायां समाजवादी पक्षस्य सांसदः प्रोफेसर रामगोपाल यादवः अस्य विषयस्य उत्थापनं कृत्वा अस्मिन् सन्दर्भे उक्तवान् यत् यस्मिन् राज्यारक्षिणां सहभागिता वर्तते। भारतीय अन्तरिक्षानुसन्धान संघटनं श्वः सायंकाले 18:15 श्रीहरिकोटायाः सतीश धवन अन्तरिक्ष केन्द्रात् PSLV-C59 प्रक्षेपणयाने PROBA-3 इत्येतस्य प्रक्षेपणं करिष्यति। भारतेन ह्यः थाईलैंड देशस्य बैंकॉक नगरे अस्य वर्षस्य एशियन ई स्पोर्ट्स गेम्स इत्येतस्यां प्रतियोगितायां स्वप्रथमं पोडियम फिनिश इति प्राप्तम्। इदानीं भारतं ई स्पोर्ट्स जगति नेतृत्वं कर्तुं शक्ष्यति, यतोहि मिस्टर टॉम बॉय इति नाम्ना प्रख्याति प्राप्तः पवन कम्पेली बैंकॉक नगरे अस्य वर्षस्य एशियन ई स्पोर्ट्स गेम्स इत्येतस्यां प्रतियोगितायां ई फुटबॉल स्पर्धायां कांस्य पदकं प्राप्तवान् इति वार्ताः।